कर्मणाल प्रजजारते रत्यागे नैहे अमृतत्वमानशु परे कन्दिः कन्दुहारां विभ्राजते तत्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितां सा सञ्जातयोगाद्यतजश्चुद्धलत्वाः ते ब्रह्मलोके तु परान्तकाले परावृतात् परिमुच्यन्ति सर्वे सर्वं विपापं परमेष्मभूतैः यत्कुण्डलीकं पुरमध्यसर्गस्थम् तत्रापि चक्रं गगनं विजोगस्तत्निरदन्तस्तदुपासितव्यम् यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिदेशस्य जः परः स महेश्वरः।